सर्वेभ्यो नमस्कारः. अद्यतनवर्गे वयं किं कर्तुम् इच्छामः इत्युक्ते, तत्र प्रथमतया वयं विभक्ति दृष्टवन्तः, तस्य किञ्चित् अभ्यासं कुर्मः. तदनन्तरं या वयं एकां कथां पठितवन्तः, तस्य विषये किञ्चित् गृहपाठः आसीत्, तदपि कृत्वा अनन्तरं अग्रे गच्छामः. अस्तु, प्रथमतया वयं एतत् विभक्ति इति किञ्चित् अभ्यासं कुर्मः. तत्र अकारान्तपुल्लिङ्गदेवशब्दः इति, हा, तत्र भानुभगिनी भवती वदति वा देवशब्दस्य?
आम् महोदय.
सर्वाणि विभक्तिरूपाणि सम्बोधनं त्यजतु.
देवः, देवौ, देवाः, देवं, देवौ, देवां, देवेन, देवाभ्यां, देवैः, देवाय, देवाभ्यां, देवेभ्यः, देवात्, देवाभ्यां, देवेभ्यः, देवस्य, देवयोः, देवानां, देवे, देवयोः, देवेषु.
हा, समीचीनं भगिनि. अस्तु, हा, इदानीं गीताञ्जलि भगिनी भवती तत्र वनम् इति, हा, तद् वदति वा?
वनं, वनं महोदय.
हा, वनं शब्दः.
वनं, वने, वनानि. वनं, वने, वनानि. वनेन, वनाभ्यां, वनेभिः,
वनैः, वनैः,
वनैः, वनाय, वनाभ्यां, वनेभ्यः, वनात्, वनाभ्यां, वनेभ्यः, वनस्य, वनयोः, वनानां, वने, वनयोः,
वनेषु. हा, स्त्रीलिङ्गे इति लतासु इति भवति, हा, किन्तु अत्र वनेषु एव. हा, समीचीनं. सरलभगिनी लता इति वदति वा? सरलभगिनी नमस्कारः. अस्तु, भानुचेतनी महोदय श्रूयते वा? भवान् अस्ति वा?
श्रूयते
महोदय.
लता, लते, लताः, लतां, लते, लताः, लतया, लताभ्यां, लताभिः, लतायै, लताभ्यां, लताभ्य, लतायाः, लताभ्यां, लताभ्यः, लतायाः, लतयोः, लतानां, लतायां, लतयोः, लतासु.
हा, समीचीनं भगिनि. सम्बोधनम् इदानीं मास्तु. हा, अस्तु, इदानीं गीताञ्जलि भगिनि, तत्र उमा इति,
उमे, उमाः, उमया, उमाभ्याम्, उमाभिः, उमायै, उमाभ्याम्, उमाभ्यः, उमायाः, उमाभ्याम्, उमाभ्यः, उमायाः, उमयोः, उमानाम्, उमायाम्, उमयोः, उमासु.
हा, समीचीनं भगिनि. हा, धन्यवादः. अस्तु, भानु भगिनि, इदानीं सीता इति.
सीता सीते सीताः सीतां सीते सीताः सीतया सीताभ्यां सीताभिः सीतायै सीताभ्यां सीताभ्यः सीतायाः सीताभ्यां सीताभ्यः सीतायाः सीतयोः सीतानां सीतायां सीतयोः सीतासु.
हा समीचीनम् अस्तु. हा इदानीं भानुचेतिनी महोदय वदति वा?
आं महोदय.
अस्तु हा इदानीं कुञ्चिका इति करोतु महोदय.
कुञ्चिका कुञ्चिका कुञ्चिके कुञ्चिकाः कुञ्चिकां कुञ्चिके कुञ्चिकाः कुञ्चिकया कुञ्चिकाभ्यां कुञ्चिकाभिः कुञ्चिकाभिः कुञ्चि कुञ्चिकायै कुञ्चिकाभ्यां कुञ्चिकाभ्यः कुञ्चिका कुञ्चिकायाः कुञ्चिकाभ्यां कुञ्चिकाभ्यः कुञ्चिकायाः कुञ्चिकयोः कुञ्चिकयोः कुञ्चिकानां
कुञ्चिकानां
कुञ्चिकानां कुञ्चिका कुञ्चिकायां कुञ्चिकयोः कुञ्चिकासु
कुञ्चिका. समीचीनं महोदय, समीचीनं, बहु समीचीनम्. अस्तु हा अस्तु. इदानीं तत्र अस्तु गीताञ्जलि भगिनी, इदानीं रामशब्दस्य केवलं चतुर्थी विभक्ति.
चतुर्थी रामाय रामाभ्यां रामेभ्यः.
हा समीचीनं. भानु भगिनी, इदानीं पत्रम् इति पत्रम् अस्तु किं पश्यामः. अस्तु रामशब्दः एव किन्तु षष्ठी विभक्ति.
षष्ठी विभक्ति रामस्य रामयोः रामाणां.
हा तत्र रामाणां णकारः भवति. रामाणां
रामाणां
रामायणम्. अस्तु सरला भगिनी, इदानीं उमाशब्दस्य सप्तमी विभक्ति.
उमायाम् उमयोः उमासु.
उमासु समीचीनम्. हा भानुचैतन्य महोदय, रामशब्दस्य तृतीया विभक्ति.
रामेण रामाभ्यां
तत्र तत्र रामेण इति भवति. नकारः अस्तु समीचीनं. समीचीनम्. इदानीं तत्र एतस्य अभ्यासः यदि वयं कुर्मः बहुवारं कुर्मः, देवशब्दः वनं शब्दः अपि लताशब्दः नदी अपि करणीयं, किन्तु यत् प्रथमपुटे अस्ति यत् तत्र करपत्रं यद् अस्ति, अहं लिङ्क् प्रेषितवान्, तत्र देवः अपि वनं, यदि देवशब्दः जानाति चेत् वनस्य अपि जानीमः वा? कोऽपि वदति वा, यदि वयं देवशब्दस्य विभक्तिरूपाणि जानीमः वनस्य अपि जानीमः वा?
प्रथमद्वे विभक्त्यां
समानमस्ति. अपि प्रथम अपि द्वितीया विभक्ति वनशब्दस्य वनं शब्दस्य क्लेशः अस्ति वा तत्र? समानमस्ति, सुलभमस्ति. अतः वनं वने वनानि तु तत्र कण्ठस्थीकरणार्थं किमपि नास्ति खलु तत्र. अतः देवशब्दः जानीमः चेत् वयं वनं वनं शब्दस्य अपि विभक्तिरूपाणि वक्तुं शक्नुमः. अतः तत्र देवः अपि लता तावदेव.
तद् अस्माकं पुस्तके नवसप्तति अधिकम् एकशतं पुटे सर्वे परिशिष्ट्य तत्र सर्वे विभक्त्यां सन्ति
सत्यं भगिनि, किन्तु तत्र प्रायशः मुद्रणदोष अपि अस्ति इति कृत्वा अहं स्वरूप महोदयस्य लिंक् प्रेषितवान्, अतः प्रायशः नास्ति किन्तु मम विश्वासः स्वरूप महोदय अस्ति, अतः सः बहुवारं पश्यति सर्वं चिन्तयित्वा एव करपत्रं करोति, अतः तत्र अन्येषु विभक्तिरूपेषु प्रायशः मुद्रणदोष अस्ति इति मन्ये, अत्र प्रायशः नास्ति किन्तु द्वितीयभागे किमपि, किन्तु एतत् बहु समीचीनम् इति मन्ये, अपि रामशब्दः प्रथमतया तत् समीचीनं नास्ति इति मम चिन्तनमपि अस्ति, अकारन्त पुल्लिङ्गविभक्तिरूपस्य यदि कण्ठस्थीकरणं कुर्मः रामशब्दः मास्तु देवशब्दः समीचीनम् अस्ति, तत्र रामाणाम् इति अस्ति खलु भगिनि, अतः देवशब्दः देवानां, तत्र तदा वयं जानीमः अस्तु नकारः एव सामान्यरूपं, नकारः कदाचित् आगच्छति किन्तु सर्वदा नकारः इति नास्ति इति,
अस्तु
सत्यं खलु,
आमाम्
अतः किन्तु यद् गीतासोपने अपि अस्ति तदपि दृष्ट्वा वयं वक्तुं शक्नुमः सत्यमेव, किन्तु तत्र गुरु अपि गुरुशब्दः समीचीनम् अस्ति किन्तु तत्र ऋकारः अस्ति इति कृत्वा प्रथमवारं तद् मास्तु इति तावदेव, अस्तु तत्र गतवर्गे वयं किञ्चित् चर्चितवन्तः कुत्र अत्र वयं दृष्टवन्तः विभक्तिरूपेषु तत्र नकारः सामान्यतया आगच्छति किन्तु कदाचित् णकारः अपि भवति, तत्र णत्वम् इति वदामः, तस्य विषय यदि ज्ञातुम् इच्छन्ति चेत् अहम् ईमेल् लिङ्क् प्रेषितवान् गतसप्ताहे, किन्तु अद्य अपि पुनरेकवारं तदेव सोपानद्वयं, अनेकानि सोपानानि सन्ति किन्तु सोपानद्वयं तत्र यदि कृष्णफलकं पश्यन्ति चेत् अहं जानामि भानुचैतन्य महोदय प्रायशः न पश्यति इति किन्तु अहं वदामि तत्र किम् अस्ति इति, तत्र ऋकारः रकारः शकारः अस्ति चेत् तदनन्तरं नकारः अस्ति चेत् तद् नकारः णकारः भवति, तदनन्तरम् अन्य द्वितीयसोपानं किम् अस्ति चेत् मध्ये नकारः अपि ऋकारः रकारः शकारः मध्ये यदि स्वरः अस्ति चेत् अथवा कवर्गः अस्ति अथवा पवर्गः अथवा तत्र किम् अन्यत् किमपि यदि अस्ति चेत् तत्र बाधा नास्ति, तत्र वर्गत्रयं यदि मध्ये आगच्छति चेत् तत्र मध्ये किम् अस्ति यारालाभ, तत्र यारालाभ मध्ये आगच्छति चेत् अपि बाधा नास्ति इति कृत्वा तत्र बाधा नास्ति, अन्यत् किमपि आगच्छति चेत् नकारः एव तिष्ठति नकारः न भवति इति, अत्र सोपानद्वयं तत्र अहं तस्य चित्ररूपं तत्र स्थापितवान् अस्मि किन्तु केवलम् एतदेव अस्ति, तत्र वर्गः इति स्वीकुर्मः पदं, वर्गः इति पदं तत्र णत्वं भवति न वा इति तत्र पश्यामः, वर्गस्य विभक्तिरूपं प्रथमापि द्वितीया विभक्तिरूपं किम् अस्ति, वर्गः वर्गौ वर्गाः वर्गं वर्गौ वर्गान् वर्गान् इति एव अस्ति, तत्र किमर्थं वर्गान् एव अस्ति इति अनन्तरं वदामि, तृतीयविभक्तिरूपं पश्यामः तत्र प्रश्नः अस्ति वर्गेण अथवा वर्गेण इति तत्र नकारः आगच्छति वर्गेण देवेन इति अस्ति किन्तु अत्र वर्गशब्दे रकारः अस्ति व प्लस् इर् प्लस् गा इति अस्ति किन्तु अतः णकारः भवितुम् अर्हति किन्तु ऋकारस्य अनन्तरं किम् अस्ति ग ग इति अस्ति ग इति तस्य ग शब्दस्य वर्गः कः कवर्गीय ग इति कवर्गीयव्यञ्जनम् अस्ति इति कृत्वा तत्र नकारः णकारः भवति अतः वर्गेण इति रूपं समीचीनं भवति तदनन्तरं नकारः कुत्र आगच्छति षष्टिविभक्ति मध्ये आगच्छति वर्गस्य वर्गयोः वर्गाणां तत्रापि नकारः एव अस्ति रामशब्दः एव वर्गशब्दः अपि रामशब्दे रकारः अस्ति तदनन्तरं मकारः अस्ति मकारः कस्मिन् वर्गे भवति अतः पवर्ग अस्ति चेत् अपि बाधा नास्ति इति कृत्वा रामशब्दे अपि रामेण तृतीयविभक्ति एकवचनम् अपि बहुवचनं षष्टिविभक्ति बहुवचनं रामाणाम् इति भवति इदानीं पश्यामः सूर्यः इति सूर्यः किम् अस्ति ऋकारः अस्ति मध्ये रेपः अस्ति तदनन्तरं यकारः अस्ति यकारः अस्ति चेत् बाधा नास्ति अतः नकारः णकारः भवति णत्वं भवति इति वदामः णत्वं भवति अतः तृतीयविभक्ति एकवचनं किं भवति सूर्येण एव भवति षष्टिविभक्ति बहुवचनरूपं किं भवति सूर्याणाम् इति भवति इदानीं पश्यामः तत्र पुत्रः इति तत्र किम् अस्ति किं किम् अस्ति गीताञ्जलि भगिनी पुत्रः तत्र किं किम् अस्ति पू अस्ति तदनन्तरं न नकारस्य पूर्वं पुत्रशब्दे किं किं व्यञ्जनं स्वरं किम् अस्ति इति वदतु
पकार उकार तकार
ऋकार तदनन्तरं तृतीयविभक्तिरूपं पुत्रेण इति भवति किन्तु तत्र नकारस्य पूर्वं किम् अस्ति ऋकारः मध्ये किमपि नास्ति ऋकारः तदनन्तरं नकारः अतः किं भवति नकारः णकारः भवति हा इदानीम् अतः विभक्तिरूपं किं भवति तृतीयविभक्ति एकवचनं
पुत्रेण
समीचीनं भगिनि हा अपि षष्टिविभक्ति बहुवचनं किं भवति
पुत्राणाम्
इति भवति समीचीनम् अस्तु इदानीं भानु भगिनि तत्र धर्मः इति
धर्मेण
अस्तु किमर्थं किन्तु किमर्थम् इति एकवारं वदतु तत्र धर्मशब्दे किं किम् अस्ति दकारः
दकारान्त
न तत् दकारः अस्ति अन्त इत्युक्ते अन्तः मकारः मकारस्य पूर्वम् अर् इति अस्ति अर् ऋकारः अथवा ध ऋकारः अपि मकारः तदनन्तरं नकारः भवति धर्मेण इति तत्र ए प्लस् ए योग नकारः भवति धर्मेण इति इदानीं यत् रेपः इति वदामः ऋकारः वा रकारः वा रेपः इति वदामः तस्य तदस्ति तदनन्तरं किम् अस्ति मकारः अस्ति तदनन्तरं नकारः अस्ति मकारः कस्मिन् वर्गे अस्ति न मकारः कस्मिन् वर्गे अस्ति कवर्ग छवर्ग टवर्ग तवर्ग पवर्ग क कस्मिन् वर्गे अस्ति उकारः? पवर्ग पवर्ग, अतः बाधा नास्ति. नकारः नकारः भवति, अतः रूपं किम् अस्ति? धर्मे धर्मेण. हा, षष्टिविभक्ति बहुवचनरूपं
धर्माणां
धर्माणाम् इति भवति. अस्तु, इदानीं बालचैतन्य महोदय, वासरः इति
वासरेण,
हा किमर्थं, हा किमर्थं तद्
महोदय? तत्र रकारः अस्ति,
मध्ये किमपि अस्ति वा? नकारः रकारः मध्ये
सकारः अपि अस्ति.
हा, किन्तु सकारः कुत्र अस्ति?
रकारः पूर्वम् अस्ति.
हा, किन्तु किं किं द्रष्टव्यमस्ति? रकारः अपि नकारः मध्ये किम् अस्ति इति द्रष्टव्यम्. रकारस्य पूर्वं किमपि भवतु, चिन्ता नास्ति, किन्तु केवलं रकारः अपि नकारः मध्ये किम् अस्ति इति द्रष्टव्यम्. वासरः शब्दे तत्र तृतीयविभक्ति कुर्मः वासरेण इति, किन्तु रकारः अपि नकारः मध्ये किम् अस्ति?
एकारः अस्ति,
एकारः स्वरः अस्ति, स्वरः अस्ति. हा, अतः बाधा नास्ति, अतः नकारः किं भवति? नकारः भवति. इदानीं रूपं किं भवति? वासरे
वासरेण
वासरेण इति. इदानीं षष्टिविभक्ति बहुवचनं
वासराणां
वासराणाम् इति भवति. समीचीनं. इदानीं सरला भगिनी, कषायः इति
कषाय कषायेण यकार प्रत्याहारे आगच्छति. सो
हा, इदानीं किम् अस्ति प्रथमं किम् अस्ति तत्र कारणं, णत्वस्य कारणं किं किम् अस्ति?
णत्वस्य कारण कषाय अत्र शकार मूर्धन्य शकार अस्ति, मूर्धन शकार अतः तत् निमित्तं भवति. तस्य नकार नकार शकार मध्ये आकार आगच्छति, यकार आगच्छति, कोऽपि बाधा नास्ति. अट्कुप् वाङ् याङ् नुम् अपि पर्याये अपि इति सूत्रेण तत्र आकार यकार बाधा न करोति. तेन कषायेण भवति
तृतीयाभक्ति,
षष्टिविभक्ति भवति कषायाणां
कषायाणाम् इति. हा, समीचीनं. हा, धन्यवादः भगिनी. अस्तु, इदानीं गीताञ्जलि भगिनि, तत्र मूषकः इति, हा तत्र किं भवति? मूषकः शब्दे तृतीयविभक्ति एकवचनरूपे मूषकेन इति अस्ति. हा, इदानीम् इति प्रथमं चिन्तयामः, तदनन्तरं तत् नकारः तिष्ठति अथवा नकारः भवति इति इदानीं चिन्तां कुर्मः. अतः मूषकेन तत्र नकारः नकारस्य कारणम् अस्ति वा? तत्र किं किम् अस्ति चेत् नकारः नकारः भवति?
शकारः नकारः मध्ये ककार एकार अस्ति, कवर्ग बाधा नास्ति, ओवर्ग अपि बाधा नास्ति, अतः
मूषकेण इति भवति. षष्टिविभक्ति बहुवचनरूपं किं भवति? मूषकाणाम् इति भवति. समीचीनं. हा, तत्र किं वदामः, णत्वस्य कारणं कारणत्रयम् अस्ति, ऋकारः रकारः षकारः. यदि कारणं नास्ति चेत् णत्वं न भवति, चिन्ता नास्ति. कारणत्रयम् अस्ति, ऋकारः रकारः षकारः. अतः प्रथमं द्रष्टव्यं कारणम् अस्ति न वा इति, तत् प्रथमसोपानं. द्वितीयसोपानम् अस्ति कारणमस्ति किन्तु बाधा अस्ति वा मध्ये इति चिन्तनीयमस्ति. तद् द्वितीयसोपानम्. मध्ये स्वरम् अस्ति चेत् बाधा नास्ति, कवर्गव्यञ्जनम् अस्ति चेत् बाधा नास्ति, पवर्गव्यञ्जनम् अस्ति चेत् बाधा नास्ति, यारालाव अस्ति चेत् अपि बाधा नास्ति इति. बाधा अर्थे बाधा इत्युक्ते ओब्स्टकल् इति. पास् अस्ति, कारणम् अस्ति किन्तु बाधा अस्ति चेत् इट् वोण्ट् हाव् दि एफेक्ट्. कास् एफेक्ट् मध्ये ओब्स्टकल् अस्ति इति. भानु भगिनी अवगच्छति वा इदानीं समीचीनं वा?
न महोदय.
बाधा अस्ति इत्युक्ते नकारः न भवति इति.
नकारः न भवति.
प्रथमं कारणं नकारः कदा भवति? कारणं कारणं कारणत्रयम् अस्ति चेत् कारः ऋकारः रकारः अथवा षकारः. तदनन्तरं रकारः षकारः ऋकारः मध्ये अपि नकारः मध्ये किम् अस्ति इति द्रष्टव्यम् अस्ति. यदि मध्ये तवर्ग अथवा टवर्ग अस्ति चेत् णकारः न भवति. किन्तु कवर्ग पवर्ग अथवा स्वरम् अस्ति चेत् भवति नकारः. अतः वयं वदामः बाधा अस्ति न वा इति द्रष्टव्यम् इति. किं कुर्मः एतत् अहम् अनेक अस्तु अस्तु एकं किमपि पश्यामः. नारदः इति शब्दः स्वीकुर्मः. इदानीं नारदः शब्दे तृतीयविभक्तिरूपं किं भवति चिन्तयामः. कारणमस्ति वा नारदेन इति अस्ति वा अथवा नारदेण इति अस्ति वा? तत्र कारणमस्ति वा तत्र नारदशब्दे नत्वस्य? प्रथमं कारणं पश्यामः भगिनि एकवारम्.
नारदशब्दे रेफ अस्ति.
भानु भगिनी अङ्गीकरोति खलु तत्र णत्वस्य णकार भवितुम् अर्हति. कारणम् अस्ति ऋकारः रकारः अथवा षकारः अस्ति चेत् णत्वं भवति, तस्य तत् भवितुम् अर्हति. इट् केन् हेपन् इति. णत्वं भवति वा तत्र? कारणम् अस्ति वा तत्र नारदशब्दे? इदानीं नारदेन इति चिन्तयामः. अस्तु, तत्र रकारः अस्ति, नकारः अपि अस्ति, मध्ये किम् अस्ति? न अन्त सर्वं त्यजतु भगिनि. नारदशब्द नारदेन इति चिन्तयामः. नारदेन इति शब्दः अस्ति खलु. तत्र प्रथमं किम् अस्ति? ना अस्ति. तदनन्तरं किम् अस्ति? रा अस्ति खलु. तदनन्तरं किम् अस्ति? दा अस्ति. तदनन्तरं ए अस्ति. तदनन्तरं नकारः अस्ति. सत्यं वा? नारद नारदेन इति अस्ति खलु. इदानीम् अन्तिमं किम् अस्ति? नकारः अस्ति अन्तिमं. तस्य पूर्वं किम् अस्ति? एकारः अस्ति. तस्य पूर्वं किम् अस्ति? द इति अस्ति. द इति व्यञ्जनम् अस्ति. तस्य पूर्वं रकारः अस्ति. इदानीं रकारः अपि नकारः मध्ये द अस्ति अपि ए अस्ति खलु. इदानीम् एकारः कीदृशं स्वरः अस्ति? अस्तु, अतः वयं वदामः बाधा नास्ति. किन्तु दकारः कस्मिन् वर्गे अस्ति? तवर्ग इति वदामः. तवर्गे अस्ति. तवर्गे अस्ति चेत् बाधा अस्ति इत्युक्ते रकारः अस्ति किन्तु नकारः एव तिष्ठति, नकारः न भवति इत्युक्ते नारदे न इति एव रूपमस्ति. किमर्थं चेत् मध्ये कारणम् अस्ति, रकारः अस्ति किन्तु मध्ये बाधा अस्ति इति वदामः. बाधा अस्ति चेत् नकारः तिष्ठति, इट् वोण्ट् चेञ्ज् टु नकारः.
ओके,
हा, बाधा इत्युक्ते ओब्स्टकल् इति. देर् इस् अ कास् बट् कास् विल् हेव् एन् एफेक्ट् इफ् देर् इस् नो ओब्स्टकल्. सो कास् इस् ऋकारः, रेपः अथवा शकारः. एण्ड् तद् किं करोति, तद् नकारं, नकारस्य परिवर्तनं करोति णकारः इति. किन्तु मध्ये बाधा अस्ति चेत् तत् न कर्तुं शक्नोति. मध्ये पवर्ग कवर्ग स्वर अस्ति चेत् कर्तुं शक्नोति, किन्तु टवर्ग टवर्ग चवर्ग अस्ति चेत् कर्तुं न शक्नोति. अतः नारदेन इति रूपम् अस्ति. तदनन्तरं षष्टिविभक्ति बहुवचनं किं भवति, नारदानाम् इति भवति.
भगिनी दामोदर यदि भवति तत्र बाधा नास्ति.
दामोदर तत्र रकारः एव अन्ते अस्ति. दामोदरेण अपि दामोदराणाम् इति भवति. अस्तु, तत्र भीष्मः शब्दः इति इदानीं तत्र किम् अस्ति? तत्र कारणमस्ति वा णत्वं भीष्मेन इति पदं पश्यामः. तत्र कारणं, कारणत्रयम् अस्ति, ऋकारः रकारः शकारः. तत्र हा शकारः अस्ति. भानुचितिनि महोदय, अतः किं भवति, भीष्मेण अथवा भीष्मेन किं भवति? अस्तु, गीताञ्जलि भगिनि वदतु, भीष्मेण अथवा भीष्मेन किं भवति?
शकारः अस्ति तथा णकारः भवति. भीष्मेण अन्तिमरूपम् अस्ति.
किमर्थम्?
शकार अस्ति,
शकार नकारः अस्ति, शकारः अस्ति नकारः अस्ति, मध्ये किम् अस्ति,
मध्ये मकारः अस्ति,
एकारः अस्ति, एकारः अस्ति, व्यञ्जनमस्ति, पवर्गीयव्यञ्जनमस्ति,
पवर्गीयव्यञ्जनम् अस्ति तथा बाधा नास्ति. तदनन्तरं
एकारः स्वरः अस्ति,
एकारः स्वर अस्ति,
बाधा नास्ति,
बाधा नास्ति.
अतः
अतः भीष्मेण अन्तिम रूपम् अस्ति
भवति. हा, इदानीं षष्ठी विभक्ति बहुवचनरूपं किम् अस्ति? भीष्माणाम् इति भवति. समीचीनम् इति भवति. अस्तु, समीचीनम्. इदानीम् एतत् पश्यामः, तत्र एतत् नहुषः इति. भानु भगिनी, भवती किं वदति इदानीं नहुषः तृतीयविभक्तिरूपं किं भवति?
नहुषः नहुषः नकारान्त
नहुषः तदेव इति चिन्तयामि भगिनि, नहुषः इति चिन्तयामि. सत्यं वा?
मूर्धन्यशकारः अस्ति वा तालव्यशकारः?
नहुषः इति अहं चिन्तयामि मूर्धन्यः इति. अस्तु, त्यजामः. भानु भगिनि, नहुषः प्रायशः तत्र अहं भगिनि एकवारम् एकनिमेषः तत्र एतत् कुर्मः विषयः इति स्वीकुर्मः विषयः इति वदतु तत्र विषयः तत्र
तृतीयविषयः
तृतीयविभक्तिरूपं किं भवति विषयेण अथवा विषयेन
शब्द पूर्वं
तस्य अनन्तरं श अस्ति
तस्य अनन्तरं या शब्द
तदनन्तरं
बाधा अस्ति
बाधा नास्ति यकारः अपि बाधा नास्ति तत्र यकारः अस्ति चेत् बाधा नास्ति तत्र स्वर अस्ति चेत् बाधा नास्ति कवर्ग अस्ति चेत् बाधा नास्ति
बाधा नास्ति चेत् विषयेण
समीचीनं भगिनि समीचीनं विषयेण इदानीं षष्टिविभक्ति बहुवचनरूपं किं भवति विषयाणाम् इति भवति समीचीनं भगिनि अस्तु इदानीं तत्र सरला भगिनि क्लिष्टः ऋषिः इति
ऋषिः योग नकार ऋषि भवति मूर्धन्यशकार अस्ति तस्य भवति निमित्तं ऋषि ना नकार आगच्छति ऋषीणां भवति शकार नकार तयोर्मध्ये का बाधा नास्ति ईकार आगच्छति ईकार प्रत्याहारे स्वर अस्ति ऋषीणां भवति ऋषीणा
तृतीया समीचीनं ऋषीणा अपि षष्टिविभक्ति बहुवचनरूपं ऋषीणां इति ऋषीणाम् इति समीचीनम् अस्तु इदानीं गीताञ्जलि भगिनी तत्र वरदा इति तत्र षष्टिविभक्ति वरदा इति शब्द आकारान्तस्त्रीलिङ्गशब्दः अस्ति आकारान्तस्त्रीलिङ्गशब्दे कुत्र नकारः भवति गीताञ्जलि भगिनि
आकारस्त्रीलिङ्गशब्दे
लताशब्दे कुत्र नकारः भवति
लताशब्दे केवलम् एकरूपं नकारणकार अस्ति
नकारः कुत्र भवति
षष्टि बहुवचनरूपे
समीचीनं बहुवचनरूपे अस्तु अतः इदानीं प्रश्नः कः वरदा इति शब्दः अस्ति चेत् षष्टिविभक्तिबहुवचनरूपं किं किं भवति प्रश्नः किं वरदानाम् अथवा वरदानां तत्र किं रूपं समीचीनम् इति प्रश्नः खलु इदानीं किं रूपं समीचीनं
रकारः नकारः मध्ये अस्ति धकार आकार आकार स्वर अस्ति आकार बाधा नास्ति धकारः सवर्ग अस्ति सवर्ग अस्ति बाधा अस्ति तदनन्तरं वर्धानाम् अन्तिमरूपम् अस्ति
समीचीनं सम्यक् रूपम् अस्ति समीचीनं भगिनि वरदानाम् एव समीचीनं रूपम् अस्ति अस्तु तदेव तत्र कृष्णफलकं पश्यति चेत् तत्र सूत्रम् अपि अहं तत्र चित्ररूपेण स्थापितवान् अस्मि भगिनि तत्र प्रथमपुटे एव अस्ति तदेव अस्ति तदेव तत्र चित्रं पश्यति चेत् फुट्नोट् अस्ति रषाभ्यां नूणः समानपदे इति सूत्रमस्ति. अग्रिमं सूत्रमस्ति तत्र व्यवधाने सत्यपि नूणः इति. प्रथमपुटे चित्रद्वयमस्ति अधोभागे. केवलं यदि अधिकं ज्ञातुम् इच्छन्ति चेत् इदानीं यत् सोपानद्वयं वयं तस्य अभ्यासम् इदानीं कृतवन्तः तदेव अस्ति तत्र. किन्तु पुनरेक अभ्यासद्वयम् अथवा त्रयं कुर्मः, तदानीं पश्यामः किम् अस्ति इति. अस्तु, भानुचेतनी महोदय, तत्र भैरवः इति, तत्र भैरवः किं भवति तृतीयविभक्तिः?
भैरवेण लकारः भवति. किमर्थं चेत् रकारः प्रथमं तत्र अस्ति निमित्तं, तदनन्तरं वकारः अपि अस्ति, बाधा न भवति, अतः अन्तिमः पदं भैरवेण
भवति. षष्टिविभक्ति बहुवचनं
भैरवाणां,
भैरवाणाम् इति भवति. अस्तु, इदानीं सरला भगिनी, मीनाक्षी इति पदम्?
मीनाक्षी, षष्टिविभक्ति,
सत्यं सत्यं, मीनाक्षी इति
ईकारस्य शकार, मूर्धन्य शकार अस्ति, नकार शकार मध्ये ईकार आगच्छति, अत्कुप्वाङ् प्रत्याहारे आगच्छति.
किन्तु तत्र कुत्र शकारः नास्ति इति खलु, मीनाक्षी एव अस्ति खलु, तत्र कुत्र शकारः अस्ति, मूर्धन्यशकारः?
मीनाक्षी शकार ईकार पूर्वं शकार आगच्छति, मीनाक्षी संयुक्त संयुक्तपदम् अस्ति. मीनाक्षी ककार
पदं नास्ति,
संयुक्तवर्णं भवति.
समीचीनं भगिनि,
संयुक्तवर्णः अस्ति, ककार शकार मेलनेन क्ष भवति,
समीचीनं भगिनि. तत्र एतत् सर्वे जानन्तु, क्षकारः इत्युक्ते ककारः प्लस् योग मूर्धन्यषकारः, अतः मीनाक्षी इति पदे किं भवति तत्र मूर्धन्यषकारः, नकार, अतः णत्वं भवितुम् अर्हति. इदानीं षष्टिविभक्ति बहुवचनरूपं भवति मीनाक्षीणाम् इति. अस्तु, इदानीं गीताञ्जलि भगिनी, कक्ष्या इति, कक्ष्या इति षष्टिविभक्ति बहुवचनरूपं किं भवति? कक्ष्या नाम अथवा कक्ष्याणां?
षकार, यकार, आकार, आकार, यकार बाधा नास्ति. तदनन्तरं कक्ष्याणां
इति भवति. समीचीनं भगिनि, अस्तु. अतः इदानीम् एतद् अन्यत् किं पश्यामः, अन्यत् अहं लिखितवान् अत्र. भानुचेतिनी महोदय, मनुष्यः इति.
महोदय, मनुष्यः शकारः अस्ति, अतः निमित्तं भवति तत्र. यकारः अपि अस्ति, अतः अथ नास्ति, अतः मनुष्येण विभक्ति, मनुष्याणां षष्ठी बहुवचनमपि.
समीचीनं महोदय, समीचीनं. अस्तु अस्तु, इदानीं सर्वे एतत् जानन्ति इति मन्ये. अस्तु, तत्र सोपानद्वयम् अस्ति, प्रथमसोपानम् अस्ति कारणम् अस्ति न वा इति परिशीलनं, तस्य परिशीलनं कुर्मः. प्रथमं कारणं किं, कारणत्रयम् अस्ति, ऋकारः वा रकारः अथवा षकारः. मूर्धन्यषकारः षष्टिः इति शब्दे यदस्ति तद् यदस्ति चेत् कारणम् अस्ति. तदनन्तरं द्वितीयसोपानमस्ति बाधा अस्ति न वा इति मध्ये कारणम् अपि नकारः तयोः मध्ये बाधा अस्ति न वा इति द्रष्टव्यं. तत्र बाधा किं किं भवति छवर्ग टवर्ग तवर्ग बाधा भवति अथवा षकारः षकारः सकारः अपि बाधा भवति हकारः अपि बाधा भवति इति मन्ये. सत्यं वा तत् हकारः? हा अहं चिन्तयामि तदपि बाधा इति केवलं यारा लाभा इति बाधा नास्ति. हकारः बाधा इति खलु भगिनि इति चिन्तयामि भगिनि.
हकार बाधा नास्ति महोदय.
नास्ति वा? अस्तु
अट् प्रत्याहारे आगच्छति.
अस्तु बाधा नास्ति. अस्तु हा केवलं केवलं षकारः षकारः सकारः तदेव तत्र
तालव्यषकारः सकारः
हा तावदेव. मूर्धनिषकारः अपि बाधा एव अस्ति किन्तु तद् बाधा इति भवति किन्तु बाधा नास्ति. हा केवलं हा तालव्यषक हा षकारः
सकारतवर्गीय आगच्छति तालव्यषकारचवर्गीयवर्गीय आगच्छति.
हा तावदेव. अस्तु इति कृत्वा तदेव यदि बाधा अस्ति चेत् नकारः तिष्ठति णकारः इति तस्य परिवर्तनं न भवति.
अत्र दत्तमस्ति व्यवधानं तस्य अर्थं बाधा एव अस्ति.
तत्र अहम् एतत् जनार्दन हेगडे महोदयस्य नत्वा निजान्तम् इति लघुपुस्तकमस्ति बहु समीचीनमस्ति. यदि कोऽपि क्रेतुम् इच्छति चेत् पुस्तकं क्रेतुम् इच्छति चेत् जनार्दन हेगडे महोदयेन यत् किमपि पुस्तकं क्रेतुम् इच्छति चेत् समीचीनमेव. सः बहु सम्यक्तया लिखति सर्वान् विषयान् बहु सम्यक्तया वदति किं किम् अस्ति तत्र.
पुस्तकस्य नाम किं महोदय?
नत्व निजन्तम् इति नत्व निजन्तम् इति संस्कृतभारती मध्ये एतत् लभ्यते. नत्व निजन्तम् इति पुस्तकं लघुपुस्तकं विंशति न त्रिंशत् पुटानि सन्ति तावदेव किन्तु बहु समीचीनम् अस्ति. सः बहु एतादृशानि पुस्तकानि सः लिखितवान् बहु सर्वे अपि बहु सम्यक् अस्ति. अस्तु इदानीम् अग्रे गच्छामः. गतवर्गे अथवा तस्य पूर्वं वयं कपोतस्य कथां पठितवन्तः. तस्मिन् विषये गृहपाठः आसीत् कथायाः सारांशः लिखतु इति. अस्तु भानुभगिनी वदति वा?
अहं न लिखामि महोदय.
न लिखितवती? अस्तु अस्तु हा गीताञ्जलि भगिनी वदति वा अथवा सरला भगिनी वदति वा? अस्तु
अहम् आरम्भे. अस्तु. कश्चन दुष्टः निष्करुणः व्याधः एकदा वने गत्वा जालं प्रसृत्वा जाले
प्रसारित्वा
जाले एकां पतितां कपोतां गृहीत्वा पञ्जरे स्थापयित्वा अग्रे प्रस्थानं कृतवान्. मार्गे महती वृष्टि मार्गे महती वृष्टि वेगेन वायुः च आपतत्. स अन्वेषणं कृत्वा बृहत् वृक्षस्य अधो आगत्य
मध्ये महती वृष्टिः
अपतत. सः अन्वेषणं कृत्वा बृहत् वृक्षस्य अधो आगत्य विरामं स्वीकृतवान्। अपि च विरामं स्वीकृतवान्। अपि च वृक्षे वसितं प्राणिनं स्वस्य रक्षायै प्रार्थितवान्। तत्र वसितं प्राणी अन्य कोऽपि न, किन्तु गृहीतयाः कपोतयाः पतिः कपोतः आसीत्। पत्नी तम् उक्तवती, भो कान्त, एष व्याध आवयोः अतिथिः अस्ति। सः शीतैः च बुभुक्षयाः ग्रसितः अस्ति। अतः मम बन्धस्य चिन्ता मास्तु, तस्य सत्कारं करोतु इति।
बुभुक्षया केवलं तृतीया अथवा
तृतीया?
शीतैः
बुभुक्षया,
शीतैः बुभुक्षया
च ग्रस्तः अस्ति। कपोतः पत्न्याः वचनं श्रुत्वा अङ्गकारैः शुष्कैः पर्णैः अग्निं ज्वालित्वा तस्य शीतं निवारितवान्। तस्य बुभुक्षा निवारणाय अन्य कोऽपि आहारं न प्राप्य स्वयम् अग्निं प्रविश्य व्याधं तस्य मांसं खादनाय अर्पितवान्।
तत्र भगिनि, तत्र अन्य कोऽपि इति पुनरेकवारं,
अन्य कोऽपि आहारं न प्राप्य,
किन्तु तत्र प्राप्य इति किम् अस्ति? क्रियापदमिव अस्ति खलु?
अहं लभ्यन्त
सत्यं, किन्तु तत्र तस्मिन् भागे खण्डे प्राप्य इति क्रियापदमिव अस्ति खलु?
अस्तु, आम्।
तस्य पूर्वम् आहारः किं भवति?
ओ, आहारं न भवति, आहारः
न आहारमेव समीचीनम्, आहारं प्राप्य इति खलु? व्याधः एव कर्तृपदम्।
आमाम्, आहारं
कमपि, अतः कमपि,
कमपि आहारं न प्राप्य आसीत्। कमपि न कोऽपि,
कमपि
कमपि आहारं न प्राप्य स्वयम् अग्निं प्रविश्य व्याधं तस्य मांसं खादनाय अर्पितवान्। व्याधः
व्याधाय, क्षम्यताम्, अहं कर्तृपदं व्याधः इति उक्तवान्, किन्तु कपोतः इति कर्तृपदम् अस्ति तत्र, क्षम्यताम्। अपि व्याधाय, व्याधाय
अग्निं प्रविश्य व्याधाय तस्य मांसखादनाय। धन्यवादः महोदय।
खलु, अर्पितवान् इति क्रियापदम् अस्ति,
क्रियापदम् अस्ति,
अतः
खादनाय अपि भवति चतुर्थी विभक्ति,
चतुर्थी, समीचीनं।
व्याधः कपोतस्य त्यागं दृष्ट्वा लज्जितः अभवत्। कपोतां बन्धनविमुक्तां कृतवान्। कपोता पति विरह पीडिता स्वस्य प्राणा अग्निं प्रविश्य त्यक्तवती।
एतेन
स्वस्य प्राणाः अग्निं प्रविश्य, प्राणाः अपि द्वितीया विभक्ति अस्ति न,
किन्तु लिङ्गः
लिङ्गं
किम् इति मम प्रश्नः।
प्राणा
इति नास्ति खलु?
प्राणान् अस्तु,
प्राणः अथवा प्राणः पुल्लिङ्ग
भवति, प्राणान्
अथवा प्राणं, तस्य प्राणम् इति खलु, तस्य इति अस्ति, तस्याः इति
स्वस्य लिखितवती, स्वस्य
अस्तु, स्वस्य
प्राणम् अग्निं प्रविश्य त्यक्तवती, एतेन दृष्टान्तेन व्याधस्य मनसि परिवर्तनं जातं। सः पक्षिणः
तत्र मनसः
मनसि इन्सैड् द मन् रैट्
किन्तु किन्तु भगिनि मनसि परिवर्तनं जातम् इति अस्ति चेत् परिवर्तनं परिवर्तनं जातं परिवर्तनं जातम् किन्तु तत्र प्रश्नः किं भवति कः भवति कस्य परिवर्तनं
कस्य परिवर्तनं मनसः मनसः परिवर्तनं जातं सः पक्षिणः धर्माचरणं स्वस्य जीवनस्य अपेक्षा अधर्मेण अपेक्षया स्वस्य अधर्मेण अपहरणम् अतिहीन अनुचितं कर्म अनुभूय स्वस्य प्राणम् अग्निं प्रविश्य त्यक्तवान्
हा तत्र किन्तु बहु क्लिष्टकर क्लिष्टकरं वाक्यम् अस्ति भगिनि तत्र पुनरेकवारं वदतु तद् अन्तिमं वाक्यम्
एतेन दृष्टान्तेन व्याध्यस्य मनसः परिवर्तनं जातः सः पक्षिणः
मनसः परिवर्तनं मनसः परिवर्तनं परिवर्तनम् इति
द्वितीया भक्ति तत्र जातमपि
परिवर्तनं जातम् इति तत्र परिवर्तनमेव कर्तृपदम् अस्ति
जातं तस्य
इदानीं समीचीनं जातं हा तदनन्तरं
सः पक्षिणः पक्षिणः धर्माचरणं स्वस्य जीवनस्य अपेक्षया सः तुलना कृतवान् तस्य
अस्तु तस्य जीवनस्य
अपेक्षया अधर्मेण अधर्मेण अपहरणम् अतिहीनम् अनुचितं कर्म अनुभूय
किन्तु अपेक्षया इति तदनन्तरम् अपेक्षया तदनन्तरं किम् अस्ति भगिनि
तस्य जीव सः अधर्मेण अपहरणं कृतवान् रैट्
सः
इदानीं
किन्तु किन्तु केवलं तत्र रूपं कीदृशम् इति चिन्तयामि तत्र
अहं तयोः
तत्र
एकं धर्मचारणं कति तस्य तुलना किं
तुलना अस्ति अस्तु अपेक्षया इति अस्ति अतः तुलना तत्र भवति सत्यं किन्तु रूपं किं भवति सः इति व्याधः सः तदनन्तरं पक्षिणः
धर्माचरणं स्वस्य जीवनस्य अपेक्षया
किन्तु धर्माचरणं स्वस्य अपेक्षया तदनन्तरम् अतः खण्डं समीचीनम् अस्ति किन्तु तत्र सम्बन्धः कः इति मम मनसि किञ्चित् क्लेशः अस्ति भगिनि तावदेव
अस्तु लघुवाक्यं सः पक्षिणः धर्माचरणं दृष्ट्वा बहु इम्प्रेस् सः पक्षिणः धर्माचरणं दृष्ट्वा अति किम् अभवत्
तत् यत् अस्ति
धर्माचरणं दृष्ट्वा
तस्य धर्माचरणं तस्य स्वस्य धर्माचरणं पक्षिणः धर्माचरणस्य अपेक्षया
स्वस्य धर्मं
स्वस्य धर्माचरणं पक्षिणः धर्माचरणस्य अपेक्षया
स्वस्य कर्म अनुचितम् अनुभूतवान्
हा किन्तु अनुभूतवान् इति अस्ति अपेक्षया मध्ये अस्ति इति कृत्वा भगिनी तत्र
इदानीं सः पक्षिणः धर्माचरणं दृष्ट्वा स्व स्वस्य कर्म अनुचितं कर्म भवति अत्र द्वितीया भक्ति कर्माणि भवति
अस्तु अस्तु सत्यं अस्तु
स्वस्य कर्म अनुचितम् अनुभूतवान् अनुभूतवान् अतः स्वस्य प्राणम् अग्निं प्रविश्य त्यक्तवान्
सः अपि स्वस्य प्राणम् अग्निं प्रविश्य त्यक्तवान् समीचीनं भगिनि धन्यवादः
बहूनि अशुद्धवाक्यानि
भगिनि तत्र दीर्घवाक्यम् अस्ति चेत् तत्र क्लेशः कोऽपि श्रोता अस्ति तस्य मनसि किं भवति इति तत्र क्लेशः दीर्घवाक्यम् अस्ति चेत् किं किम् अहं श्रुतवान् पूर्वं किं श्रुतवान् इदानीं किं शृणोमि तयोः मध्ये कः सम्बन्धः इति सर्वम् आगच्छति खलु तावदेव अस्तु धन्यवादः भगिनि अस्तु अस्तु गीताञ्जलि भगिनी वदति वा
आं महोदय मम वाक्यानि नीति कथायाः नीति
अस्तु वदतु भगिनि नीतिविषये अस्ति नीतिविषये
सदा सर्वेषां मङ्गलं कार्याणि कुरु
प्रथमपदं किम् अस्ति भगिनि
सदा सर्वेषां
सर्वेषाम् इति किम् अस्ति
सर्वेषां
पुनः वाक्यं वदतु भगिनि
सदा सर्वेषां मङ्गलं कार्याणि कुरु सदा मङ्गलं कार्याणि कुरु इति सम्यक् वाक्यं महोदय
तत्र कार्यः कारणम् इति नपुंसकलिङ्गे अस्ति कार्यः इति चिन्तयामि
नपुंसकलिङ्ग् तथा कार्याणि
कार्यः वा अथवा कार्यं वा
द्वितीयविभक्ति बहुवचनं कार्याणि अहं न जानामि
अस्तु भगिनि कार्यमेव समीचीनम् अस्तु कार्याणि
सम्यक् महोदय
कार्याणि नपुंसकलिङ्गे द्वितीयविभक्ति बहुवचनरूपं समीचीनं भगिनि अस्तु
कुरु सदा मङ्गलं कार्याणि कुरु सर्वेषाम् इति पदं न सम्यक्
तत्र सर्वेषाम् इति षष्टिविभक्तिरूपम् अस्ति खलु
आं महोदय
तत्र
भवति अदर्स् यु डु अदर्स् मङ्गलं कार्यं कुरु
आल् बिलोङ्गिङ्ग् टु आल् फार् आल्
फार् फार् इति तत्
सर्वेभ्यः
चतुर्थी विभक्तिरूपं
सर्वेभ्यः धन्यवादः द्वितीयवचनं द्वितीयवाक्य अपि चेत् यः साधुं कार्यं करोति सः अति कष्टः अनुभवति
किं किं भगिनि
न यः साधुं कार्यं करोति सः अति कष्टम् अनुभवति
अतीव कष्टम् अथवा अतिकष्टं कष्टम् इति कष्टम् इति द्वितीयविभक्तिरूपं
अतिकष्टं अनुभवति. He who does good, he also suffers.
Also iti na, api iti na?
Api na, he suffers.
He suffers, asto, ha.
So, api chet is not, api chet na avashyakta.
Avashyakta nasti api, tatra artha api, artha beda api bhavati. Prayashah api iti mastu, ha? अपि किमर्थम् एतत् सम्यक् सम्यक् एव अस्ति.
मम चिन्तयामि इवन् इफ् हि सफर्स् हि डस् गुड्.
तत् अन्यत् वाक्यं भवति. तद् रूपम् अभ्यासपुस्तके अन्तिमभागे अस्ति. यद्यपि सः बहु कष्टम् अनुभवति तदापि सः सत्कार्यमेव करोति इति तादृशरूपं भवति इति मन्ये. यद्यपि तथापि इति रूपम् अस्ति भगिनि तत्र.
उत्तम पुरुषस्य कार्यं दृष्ट्वा कठोरः अधमः चापि नरः प्रवृद्धि अनुभवति.
उत्तमपुरुषस्य
कार्यं दृष्ट्वा कठोरः अधमः च अपि नरः प्रवृद्धि अनुभवति.
प्रवृद्धिं प्रायशः
प्रवृद्धिम् आम् महोदय प्रवृद्धिं द्वितीयविभक्ति
सत्यं
अनुभवति
प्रवृद्धिम् अस्तु प्रवृद्धिं प्रवृद्धिम् इत्युक्ते किं भगिनि तत्र
इम्प्रूव्मेण्ट् बेटर्
प्रवृद्धिं तत्र
सम्यक्
केवलं वृद्धिम् इति प्रवृद्धिम् इति प्रवृद्धि तत्र प्रवृद्धिं तत् मतिशब्दवत् अस्ति इति मन्ये स्त्रीलिङ्ग प्रवृद्धिशब्दः समीचीनं भगिनि प्रवृद्धिं प्रवृद्धिम् अनुभवति समीचीनं भगिनि
पति पत्न्योः सम्बन्धः बहु सम्यक् अस्ति तथा कपोतः प्रथमं स्वयम् अग्निं प्रविष्टवान् तदनन्तरं पत्नी एव
अनुसृतवती फालोड् इति
अनुसृतवती
अनुसरणम् इति अनुसृतवती इति प्रायशः रूपम् अस्ति अनुसरणम् इति रूपमस्ति
पतिपत्न्योः सम्बन्धः बहु सम्यक् अस्ति तथा कपोतः प्रथमं स्वयम् अग्निं प्रविष्टवान् तदनन्तरं पत्नी एव अनुसृतवती
पत्नी एवम् पत्नी एवं पतिम् अनुसृतवती
ओ पत्नी एवं
अथवा पत्नी एवं एव पतिम् अनुसृतवती अस्तु समीचीनं एवमेव अथवा एव एवं तत्र भेदः नास्ति भगिनि. पतिम् अनुसृतवती.
पतिम् अनुसृतवती.
हा, तत्र पतिम् इति कर्मपदं भवति.
कपोता बहु विद्वान् विद्वान् रूपं सम्यक् नास्ति. कपोता बहु विद्वान् आसीत्.
कपोता अथवा कपोतः? कपोता. हा हा, तत्र रूपं विद्वान् इति रूपं स्त्रीलिङ्गे विदुषी इति मन्ये भगिनि.
विद्वांसः
इति पुल्लिङ्गे अस्ति, किन्तु विदुषी इति स्त्रीलिङ्गे.
विदुषी. आम् महोदय.
विदुषी.
कपोता बहु विदुषी आसीत्. सा कापि स्वार्थ.
तत्र बहु इति बहु इति तस्य आवश्यकता नास्ति. विदुषी इति सा विदुषी आसीत्. कोऽपि विद्वांसः अस्ति अथवा बहु विद्वांसः इति नास्ति. केवलं विद्वांसः अस्ति, सः विद्वांसः अथवा सा विदुषी इति.
सा कापि स्वार्थबुद्धि नास्ति च.
तस्यां
कापि स्वार्थबुद्धि नास्ति च.
हा, तत्र कापि एव सम्यक् अस्ति, कोऽपि इति सम्यक् नास्ति. किमर्थम्?
कापि स्त्रीलिङ्ग.
स्त्रीलिङ्गम् अस्ति, स्त्रीलिङ्गपदम् अस्ति.
कारकपदं स्त्रीलिङ्ग.
कापि स्त्रीलिङ्गम् एव अस्ति. का इति स्त्रीलिङ्गपदम् अस्ति, किन्तु किमर्थं स्त्रीलिङ्गं तत्र?
सा.
किमर्थं का इति?
किम् अर्थं
वै? किमर्थं कापि?
किमर्थं कापि?
न न, किन्तु तत्र कोऽपि इति वक्तुं शक्नुमः वा अथवा कापि एव सम्यक् अस्ति वा? किमपि इति वक्तुं शक्नुमः वा अथवा कापि एव सम्यक् अस्ति?
कापि इत्युक्ते इवन् अ लिटल् बिट् स्वार्थ
नास्ति. तत्र हा प्रायशः काचित् अपि इति. कापि इत्युक्ते काचित् अपि अस्तु. किन्तु कापि इति किमर्थं स्त्रीलिङ्गम् इति प्रश्नः. कपोता इति स्त्रीलिङ्गः वा अथवा अन्यकारणमस्ति वा तत्र?
नो, कपोता.
न, किन्तु तत् सम्यक् तद् नास्ति भगिनि. तत्र कापि किमर्थं सम्यक् अस्ति चेत् तत्र भवती किम् उक्तवती? कापि स्वार्थबुद्धिः नासीत् इति खलु? बुद्धिः इति स्त्रीलिङ्गपदमस्ति. कापि स्वार्थबुद्धिः इति, अतः का इति स्त्रीलिङ्गरूपम् आवश्यकमस्ति तत्र.
कापि स्वार्थबुद्धिः सम्यक्
सम्यक् अस्ति. तत्र वयं किं वदामः? कः प्रश्नः अथवा कोऽपि प्रश्नः इति वदामः खलु. प्रश्नः पुल्लिङ्गपदम् अस्ति, अतः कः अपि प्रश्नः अस्ति वा इति प्रश्न इति भवति, कोऽपि प्रश्नः वा इति. किन्तु तत्र समस्या इति स्त्रीलिङ्गरूपम् अस्ति. तत्र वयं किं वदामः? कापि समस्या अस्ति वा?
कापि समस्या.
समस्या स्त्रीलिङ्गे अस्ति, अतः कापि समस्या अस्ति वा इति प्रश्नः भवति. कोऽपि प्रश्नः, कापि समस्या इति. कापि चिन् इति
स्वार्थबुद्धिः स्त्रीलिङ्ग् पदम्
तत् बुद्धिः इति मतिशब्दवत् अस्ति, इकारान्त स्त्रीलिङ्गशब्दः अस्ति बुद्धिः, तिथिः. अतः कापि स्वार्थबुद्धिः
नास्ति.
तत्र कपोता इति कपोतायाम् इति सप्तमी रूपम् अथवा कपोतायाः स्वार्थबुद्धिः नासीत् इति. तस्याः अपि, तस्याः बुद्धिः कीदृशः, तस्याः बुद्धिः स्वार्थबुद्धिः नासीत् इति तदपि वक्तुं शक्नुमः इति मन्ये. किन्तु तस्यां कापि स्वार्थबुद्धिः नासीत् तदपि सम्यक् एव अस्ति भगिनि.
महोदय, काचित् पदं
तद् अग्रे गत्वा पश्यामः चित् इति किं भवति इति, सर्टन् इति अथवा किन्तु कापि इति समीचीनमेव अस्ति भगिनि. कापि इति वदामः इदानीं.
कपोता असुलभं कार्यम् अपि करोति.
कपोता
असुलभं कार्यम् अपि करोति.
असुलभम् इति रूपम् अस्ति वा?
असुलभं कार्यम्
कोऽपि जानाति वा? असुलभं असुलभम् इति पदम् अस्ति. अस्तु, असुलभम् अस्तु, असुलभं कार्यम्
अपि करोति.
अस्तु, कृतवती.
दुर्लभम् अस्ति, असुलभं
न. किन्तु इदानीं दृष्टवान् भगिनी, असुलभ इति अस्ति, असुलभम् इति भवति, रेर् इति अस्ति अथवा डिफिकल्ट् आफ् अटैन्मेण्ट् इति अस्ति असुलभ. अहमपि तदेव चिन्तितवान्, सुलभम् अस्ति इति, किन्तु असुलभम् अस्ति न वा इति मम मनसि अपि प्रश्नः आगतः. किन्तु असुलभम् अस्ति. समीचीनं भगिनि, अग्रे
किं पदं समीचीनम्? असुलभम्
समीचीनम् अस्ति भगिनि.
दुर्लभम्
अपि समीचीनम् अस्ति. दुर्लभम् अपि समीचीनं, दुर्लभं कार्यम् अपि समीचीनम्.
तावदेव.
अस्तु, समीचीनम्. अस्तु, भानुचेतनी महोदय किमपि वक्तुम् इच्छति वा कथायाः विषये? अस्तु अस्तु, गृहपाठं त्यजतु, अन्यत् किमपि कथायाः विषये किमपि वक्तुं, नीतिविषये किमपि, यादृशानि वाक्यानि गीताञ्जलि भगिनी उक्तवती तादृशवाक्यमस्ति वा कपोतायाः विषये अथवा कपोतस्य विषये, व्याधस्य विषये? अस्तु अस्तु अस्तु, अस्तु. तत्र कथायाः विषयम् अस्तु, इदानीं समापयामः कथा इति. इदानीं किञ्चित् समयः अस्ति, तत्र किं कुर्मः, सङ्ख्या इति विषयः आगतम् आसीत् किन्तु वयं तत् किमपि न कृतवन्तः. अस्तु, पुनः एकवारम् एतत् अग्रिमवर्गे सम्यक्तया कुर्मः सङ्ख्या इति विषयं, किन्तु अद्य केवलम् एकवारं तत्र यद् पुटसङ्ख्या 58 मध्ये यत् कोष्टकम् अस्ति सङ्ख्या इति, तत्र भानुभगिनी गीतासोपाने पेज् 58
आं महोदय,
तत्र कोष्टकमस्ति 1, 2, 3 इति, तत्र त्रिंशत् पर्यन्तम् एकवारं पठतु तत्र 1, 2, 3 इति.
आं महोदय, 1, 2, 3 चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशति विंशतिः
समीचीनं भगिनि
एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्
समीचीनं भगिनि अत्र रूपं वयं तत्र कुत्र अवधानं कुत्र भवितव्यमस्ति सरला भगिनी वदति वा कुत्र कुत्र रूपभेदः भवति इति
द्वे अस्ति प्रथम एकं तत्र द्वे अस्ति द्वादश भवति द्वाविंशति भवति
तत्र द्वे अस्ति द्वादश भवति तदनन्तरं द्वाविंशतिः तत्र किम् अस्ति पूर्वं तस्य पूर्वं किम् अस्ति एकविंशतिः अथवा
एकम् एका एक अस्ति तत्र
तत्र एक अस्ति किन्तु द्वा इति द्वे भवति द्वादश भवति द्वाविंशतिः भवति तदनन्तरं 32 किम् अस्ति
द्वात्रिंशत् अस्ति
द्वात्रिंशत् अस्ति 42
42 द्वे चेत् तदनन्तरं द्वे द्वे भवति
द्वि द्वि भवति तत्र अवधानं भवतु तत्र द्वे कुत्र भवति द्वे अथवा द्वादश तदनन्तरं द्वाविंशतिः द्वात्रिंशत् इति रूपम् अस्ति किन्तु तदनन्तरं
द्विचत्वारिंशत्
इति अस्ति किन्तु तत्रापि द्विचत्वारिंशत् अस्ति द्विपञ्चाशत् अस्ति द्विषष्टिः अस्ति द्विसप्ततिः अस्ति किन्तु तदनन्तरं
तत्र सन्धि आगच्छति
किन्तु तत्र द्वि एव अस्ति
द्वि एव अस्ति
किन्तु रूपं किञ्चित् द्वि न दृश्यते किन्तु समानमेव द्व्यशीतिः इति तदनन्तरं द्विनवति तत्र द्वि इति
द्वादश द्वादश द्वाविंशति द्वात्रिंशत् इति
तत्र रूपभेदः
अवधेयम् आम्
तदनन्तरं
त्रीणि तत्रापि
तत्र तत्र त्रीणि मध्ये अपि अस्ति अस्तु तत्र भानुचित्रि महोदय तत्र त्रीणि मध्ये किं किं भवति रूपभेदः तत्र त्रीणि
त्रीणि त्रयोदश त्रयोविंशतिः त्रयस्त्रिंशत् इति तत्र दृश्यते अग्रिमे गत्वा त्रिपञ्चाशत् तदपि त्रिषष्टिः त्रिसप्ततिः त्रयशीतिः
तत्र सन्धि भवति त्रयस्त्रि एव अस्ति तत्र त्रयशीतिः इति भवति तदनन्तरं नवतिः किं भवति त्रिनवति अतः चत्वारिंशत् पर्यन्तं रूपभेदः भवति तत्र द्वे द्वादश द्वाविंशति द्वात्रिंशत् तदनन्तरं द्वि 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 इति भवति त्रीणि भवति त्रयोदश भवति त्रयोविंशति भवति त्रयस्त्रिंशत् भवति तदनन्तरं त्रि त्रि एव अस्ति मूलरूपम् अस्ति त्रि एव मूलरूपं द्वि द्वे एव मूलरूपम् अस्ति किन्तु तस्य बहु द्वा सर्वं भवति किन्तु द्वे द्वादश तद् इदानीं तत्रापि किञ्चित् अवधेयं भवति तदनन्तरं पञ्च मध्ये किमपि अवधानम् अस्ति वा अवधानं करणीयं वा सावधानम् इति वक्तव्यं वा पञ्च इति सर्वे पञ्च एव अस्ति तत्र पञ्च
चतुर्दश किञ्चित् भिन्नम् अस्ति महोदय चतुर्दश
चतुर्मध्ये तत्र प्रथमं किम् अस्ति चत्वारि चतुर्दश चतुर्विंशतिः चतुस्त्रिंशत् तदनन्तरं चतुश्चत्वारिंशत् चतुष्पञ्चाशत् चतुष्षष्टिः तदनन्तरं सर्वे सर्वत्र चतुः एव अस्ति केवलं चतुः चतुर्दशः अस्ति तदनन्तरं चतुर्विंशतिः सर्वत्र चतुः एव अस्ति केवलं चत्वारि इति हा केवलं चत्वारि इति रूपभेदः अस्ति तदनन्तरं सप्त तत्र किमपि रूपभेदः अस्ति वा सप्त सप्तदश सप्तविंशतिः सर्वत्र समानमस्ति सप्त मध्ये सर्वत्र समानमेव अस्ति सप्तनवतिः सप्त सप्ताशीतिः सप्तषष्टिः सप्तचत्वारिंशत् इति सप्तशब्दे किमपि नूतनं नास्ति नवशब्दे अपि किमपि नूतनं नास्ति नव नवदश नवविंशतिः नवत्रिंशत् नवचत्वारिंशत् नवपञ्चाशत् नवनवतिः सर्वं समानमेव अस्ति अष्ट इति विषये तत्र किञ्चित् प्रथमम् अष्ट इति अस्ति तदनन्तरम् आकारः आगच्छति अष्टादश तदनन्तरम् अष्टाविंशतिः अष्टात्रिंशत् तदनन्तरं किम् अष्ट एव अष्टचत्वारिंशत् अष्टपञ्चाशत् अष्टषष्टिः अष्टसप्ततिः अष्टाशीतिः तत्र सन्धिः भवति अष्ट प्लस् अशीतिः अष्टाशीतिः अष्टनवतिः तत्र केवलं कुत्र दीर्घ आकारः कुत्र कुत्र आगच्छति अष्टशब्दमध्ये केवलं त्रिवारम् आगच्छति तत्र अस्तु तत्र तावदेव तत्र द्वे त्रीणि चत्वारि अपि अष्ट मध्ये किञ्चित् भेदः अस्ति किन्तु नो चेत् सर्वत्र रूपं बहु सुलभम् अस्ति कण्ठस्थीकरणं कर्तुं शक्नुमः तत्र वेगेन करणीयम् इति किमपि नास्ति गत्वा गच्छता कालेन कुर्मः कण्ठस्थीकरणं भवति चिन्ता मास्तु
महोदय महोदय गीतासोपानं संख्या सर्वे नपुंसकलिङ्ग रूपं
तत्र किमपि वक्तव्यमस्ति भगिनी तत्र सत्यं यत् भवती उक्तवती तत्र सर्वे इति न तत्र एकं द्वे त्रीणि चत्वारि तयोः मध्ये तत्र लिङ्गभेदः अस्ति रूपभेदः अपि अस्ति तदनन्तरं तत्र अहं चिन्तयामि विंशति तदनन्तरं सर्वे अपि एकनिमिषः एतत् गीतासोपाने द्वितीयभागे दत्तमस्ति यदि द्रष्टुम् इच्छन्ति चेत् तत्र पश्यतु यदस्ति तदेव अहं वदामि तत्र गीतासोपाने द्वितीयभागे
अभ्यासपुस्तकं मध्ये अपि अस्ति महोदय
किन्तु अभ्यासपुस्तके
एकं द्वे त्रीणि चत्वारि इत्यादासां लिङ्गभेदः अस्ति तदनन्तरं लिङ्गभेदः नास्ति
अस्तु अस्तु तत्र किन्तु तत्र अस्तु एकनिमिषः अहं वदामि किम् अस्ति इति
एकः बालकः एका बालिका एकं फलं
सत्यं सत्यं भगिनि
बालकद्वयं बालिकाद्वयं फलद्वयं त्रयः बालकाः तिस्रः बालिकाः त्रीणि फलानि चत्वारः बालकाः
सत्यं सत्यं भगिनि तत्र एकं द्वे त्रीणि चत्वारि
पञ्च
तत्र रूपभेदः अस्ति लिङ्गभेदः अपि अस्ति किन्तु नियमः एतदस्ति अहं वदामि तत्र विंशतितः नवनवति पर्यन्तं सर्वे अपि संख्यावाचकशब्दाः एकवचनान्ताः स्त्रीलिङ्गाश्च भवन्ति. विंशतितः नवनवति पर्यन्तं सर्वे शब्दाः सर्वे संख्यावाचकशब्दाः एकवचनान्ताः अपि स्त्रीलिङ्गाः स्त्रीलिङ्गाः च भवन्ति. तत्र विंशतिः इति मतिशब्दवत् भवति. विंशतिः स्त्रीलिङ्गशब्दः अस्ति. एकविंशतिः द्वाविंशतिः तत्सर्वं स्त्रीलिङ्गे एव अस्ति. शतम् इति शब्दः नपुंसकलिङ्ग पुल्लिङ्गशब्दः रूपद्वयम् अस्ति तस्य. तदनन्तरं तत्र द्वादश त्रयोदश तत्र लिङ्गः तत्र किम् अस्ति तत्र हा तत्र अस्तु अस्तु तत्र
रामशब्दवत्
हा तत्र नित्यबहु हा तत्र
पञ्च देयर इज अ रूल फ्रॉम 5 टू 19
हा हा पञ्च इत्यतः आरभ्य नवदश पर्यन्तं
बहुवचने अस्ति.
बहुवचने अस्ति किन्तु लिङ्गः पञ्चबालकाः
पञ्चबालिकाः पञ्चफलानि तदनन्तरं लिङ्गभेदं नास्ति इति अभ्यासपुस्तकं
वदति वा?
आं महोदय.
अस्तु धन्यवादः भगिनि. अस्तु किन्तु हा लिङ्गभेदः नास्ति इति वदति समीचीनं. हा किन्तु लिङ्गभेदः नास्ति किन्तु तस्य शब्दस्य लिङ्गं किम् इति प्रश्नः अस्ति भगिनि.
आं महोदय.
अतः तद् विंशतितः तदनन्तरं सर्वं विंशतितः तदनन्तरं सर्व नवनवतिपर्यन्तं स्त्रीलिङ्गशब्दः अस्ति. त्रिंशत् वा एक द्वात्रिंशत् वा सर्वं स्त्रीलिङ्गपदमस्ति. किन्तु षड् अथवा सप्त अष्ट नव दश इति तस्य लिङ्गं किम् इति अहं न स्मरामि. हा द्रष्टव्यमस्ति. अस्तु दृष्ट्वा अग्रिमसप्ताहे वदामि.
आं महोदय.
यदि हा अस्तु 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 हा तत्तु किन्तु गीतासोपाने द्वितीयभागे एतत् सर्वं दत्तमस्ति. हा अस्तु अग्रिमवर्गे एतदेव वयं कुर्मः. सङ्ख्या इति तत्र अभ्यास प्रथम अभ्यासः तद् गृहपाठः भवति. तद् तत् कृत्वा अग्रे गच्छामः. अस्तु क्रियापदस्य विभजनम् इति प्रयोगः तद् अग्रिमवर्गे कुर्मः. अस्तु समयः जातः. विरमामः. सर्वेभ्यो नमस्कारः.
धन्यवादः.
हरि ओम् महोदय. धन्यवादः.
हरि ओम् सर्वेभ्यो नमस्कारः.